इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अष्टादशम्याः लोकसभायाः प्रथमसत्रम् ह्यः नवनिर्वाचितानाम् सांसदानाम् शपथग्रहणेन सह समारब्धम्। प्रधानमन्त्री नरेन्द्रमोदी ह्यः लोकसभासदनस्य नेता अस्ति, सदनस्य सदस्यत्वेन शपथग्रहणनेतृषु प्रथमो वर्तते। अस्थायी लोकसभायाः अध्यक्षः भर्तृहरि महताबः श्रीमोदिने शपथवचनं प्रदत्तवान्। तदनु अध्यक्षपदनिर्वाचनं यावत् लोकसभायाः कार्याचरणे श्रीमहताबस्य सहायतायै नियुक्ताः अध्यक्षसमूहाः शपथवचनं कारितवन्तः। भारतीय जनता पार्टीति दलस्य सांसदौ राधामोहन सिंहः, फग्गन सिंह कुलस्ते लोकसभाध्यक्ष विशिष्ट समूहस्य सदस्यत्वेन शपथं स्वीकृतवन्तौ। ध्येयं वर्तते यत् कांग्रेस सांसदः के सुरेशः, डीएमके सांसदः टीआर बालुः, टीएमसी दलस्य च सुदीप बन्द्योपाध्यायः लोकसभाध्यक्षाय संघटितानां समूहसदस्यानां रूपेण शपथग्रहण कार्याचरणं नैव निभालितवन्तः। तदनन्तरं केन्द्रीयमन्त्रिणः राजनाथसिंहः, अमितशाहः, नितिनगडकरी, शिवराजसिंहचौहानः, मनोहरलालः, पीयूषगोयलः, जीतनराममांझी, राजीवरंजनः, डॉ वीरेन्द्रकुमारः, किरेन रिजिजुः, चिरागपासवानः, ज्योतिरादित्य सिंधिया, अन्नपूर्णा देवी च लोकसभासदस्याः शपथवचनं स्वीकृतवन्तः। शपथग्रहणसमारोहे अनेके नेतारः प्रादेशिकभाषाष्वपि शपथग्रहणं स्वीकृतवन्तः। केन्द्रीयमन्त्रिणौ एचडी कुमारस्वामी, प्रह्लादजोशी च कन्नडभाषायां, तत्रैव धर्मेन्द्रप्रधानः, जुएल ओरामः ओडियाभाषायाम्, अपि च केन्द्रीयमन्त्री सर्वानन्द सोनोवालः असमीयाभाषायां, केन्द्रीयमन्त्रिणौ च राममोहन नायडू, जी किशन रेड्डी च तेलुगुभाषायां शपथवचनं गृहीतवन्तः। केन्द्रीयमन्त्रिणः सी आर पाटिलः गुजरातीभाषायां, प्रतापरावजाधवः मराठीभाषायां, डॉ जितेन्द्रसिंहः च डोगरीभाषायां शपथं स्वीकृतवन्तः। केन्द्रीयमन्त्री दुर्गादास उइके संस्कृतभाषायां शपथवचनं गृहीतवान्। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना वार्ताहरान् सम्बोधयता प्रोक्तं यत् अष्टादश लोकसभायाः सत्रमिदं विकसितभारतस्य निर्माणसंकल्पेन सह समारप्स्यते। तेन सबलं प्रतिपादितं यत् तेषां सर्वकारेण देशस्य सेवायै सहैव जनानाम् आकांक्षाः च पूरयितुम् अनवरतं प्रयासाः विधास्यन्ते। श्रीमोदिना प्रोक्तं यत् सर्वकारस्य प्रचालनार्थं बहुमतस्य आवश्यकता भवति, परं देशस्य संचालनार्थं सामान्य सहमतेः आवश्यकता भवति। तेन प्रोक्तं यत् विश्वस्य बृहत्तम मतदानं भव्यतया सुसम्पन्नम्। प्रधानमन्त्रिणा कथितं यत् स्वतन्त्रतायाः परं तृतीयवारं देशस्य जनैः कस्मैश्चित् सर्वकाराय अनवर्तं तृतीयवारं सेवायाः अवसरो प्रदत्तः। प्रधानमन्त्रिणा विश्वासः प्रकटितः यत् अष्टादश लोकसभायाः सांसदाः सामान्यजनानाम् आकांक्षाः पूरयितुं सम्यक् प्रयासान् विधास्यन्ति। राष्ट्रपति पदासीनया द्रौपदी मुर्मूवर्यया ह्यः राष्ट्रपतिभवने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रीयमन्त्रिपरिषदः सम्माने रात्रिभोजस्य आयोजनं कृतवती। ततः पूर्वं सूचना प्रसारण संसदीय कार्याणां च राज्यमन्त्री एल मुरुगनः राष्ट्रपतिभवने राष्ट्रपति मुर्मूवर्यया सह मेलनं कृतवान्। ह्यः राज्यसभायां केन्द्रीयमन्त्री जेपी नड्डा सदनस्य नेता नियुक्तः। सः पीयूषगोयलस्य पदम् अलंकरिष्यति, यः अधुना महाराष्ट्रस्य उत्तर मुम्बईतः लोकसभायाः सदस्यः अस्ति। अस्मिन् वर्षे फरवरी मासे गुजराततः भाजपेति दलेन राज्यसभायां नड्डा महोदयाय नामांकितः आसीत्। गतरात्रौ आईसीसी 20-20 विश्व चषक क्रिकेट उत्कृष्ट अष्ट चक्रीय प्रतिस्पर्धायां डेरेन सैमी अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे भारतेन ऑस्ट्रेलिया दलं पराजितम्। इति वार्ताः।